श्रावण श्यामले पक्षे एकादश्याम महानिशि साक्षात् भगवता प्रोक्तं तदक्षरश उच्यते ब्रह्म संबंधकरणात् सर्वेषां देहजीवयोः सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः सहजादेशकालोत्था लोकवेदनिरूपिताः संयोगजास्पर्शजाश्च न मन्तव्याः कथञ्चन अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः न मतं देवदेवस्य सामि भुक्तं समर्पणम् तस्मादादौ सर्वकार्ये सर्ववस्तु समर्पणं दत्तापहारवचनं तथा च सकलं हरे न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् सेवकानां यथा लोके व्यवहारः प्रसिद्ध्यति तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना गङ्गात्वेन निरूप्या स्यात् तद्वदत्रापि चैव हि